येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चात्म्यानजं भिन्नं तस्मै पाणिनये नमः। गुरुभ्यो नमः। नमस्ते महोदय।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सर्वनाम शब्दाः इति, किन्तु तत् किञ्चित् त्यक्त्वा अद्य एकां कथां कुर्मः, पठामः, तदनन्तरम् अग्रे तत्र अग्रिमवर्गे नूतनविषयः आयाति, नाम सङ्ख्याः इति विषयः अग्रिमवर्गे पठामः। किन्तु तत्र अद्य तत्र कथं पठामः इति, यतोहि तत्र सर्वे तत्र उपस्थापन नाम तत्र पञ्चनिमेषं यावत् अथवा तत्र पञ्चादशनिमेषं यावत् तत्र वर्गे वदामः इति सर्वे अङ्गीकृतवन्तः, अतः तत्र केवलं तत्र कथां यदि पठामः तत्र अपि बहुकालानन्तरं वयं कथां पठामः, अतः तत्र अद्य पठामः इति आशा अस्तु। तर्हि सर्वे प्राप्तवन्तः वा कथां? प्राप्तवन्तः वा? अस्तु अस्तु। तर्हि तत्र शोभा भगिनी, नमस्कारः। अस्तु, तत्र शोभा भगिनी आरम्भं करोति वा भगिनि?
आं महोदय, कथां पठामि वा? एतत् भवदीयम् इति, कस्मिंश्चित् देशे कश्चन महाराजः आसीत्। सः नितरां धर्मनिष्ठः, दानशीलः च। कदाचित् राजभवनं प्रति कश्चन तापसः आगतवान्। महाराजः अतीव सन्तोषेण तस्य प्रणामं कृतवान्, उक्तवान् च, भोः साधु महाराज, भवतः आगमनेन मम राजभवनं पवित्रम् अभवत्। अद्य अहं भवते अत्यमूल्यं कमपि उपहारं ददामि। वदतु किं ददामि इति। तापसः उक्तवान्, भवान् आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु इति।
समीचीनं भगिनि, तावत् पर्यन्तम् अस्तु। धन्यवादः भगिनि। अस्तु,
धन्यवादः
भगिनि। अस्तु, अग्रे वेदा भगिनि।
आं महोदय, तापसः उक्तवान्, भवान् आत्मनः अत्यन्तं प्रियं वस्तु अहं दद्यात् इति। झटिति महाराजः उक्तवान्, किम् अहं मम राज्यं कोशं वा समर्पयामि इति। तत् सर्वं प्रजानानां, न तु प्रजाजनानां, न तु भवदीयं। भवान् तु तस्य संरक्षणमात्रं करोति, तापसः अवदत्। एवं चेत् राजभवनं रथादिकं वा ददामि? एतत्तु मदीरामेव।
मदीयम् एव,
मदीयं
तत्र मदीयं, मदीयं तत्र किञ्चित् तत्र मुद्रणे तत्र न दृश्यते, किन्तु मदीयं, मदीयम् एव
महाराजः उक्तवान्। तापसः किञ्चित् हसित्वा उक्तवान्, महाराज, भवान् विस्मृतवान् अस्ति यत् एतदपि प्रजाजनानाम् एव इति। भवतः कार्ये सौविध्यकल्पनाय वा, सौविध्यकल्पनाय एव एतत् भवते दत्तं भवति।
हा, तावत् पर्यन्तं समीचीनं भगिनि। हा, अस्तु, अग्रे नरेश् महोदय।
तर्हि मम शरीरम् एव ददामि, एतद्वा मदीयम् इति अङ्गीकरोति खलु? महाराजः उक्तवान्, तत् भवतः मातापितृभ्यां दत्तम्, तदुपरि भवतः पुत्राणाम् अधिकारः भवति, न तु भवतः, तापसः अवदत्। अधुना तु महाराजः विस्मयेन मूकः अभवत्। सः अग्रे किं वक्तव्यम्?
हा वदतु महोदय.
तदा तापसः एव उक्तवान् राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव तस्य दानं करोतु यतः अहङ्कारः एव सर्वविधस्यापि बन्धनस्य कारणम् इति. महाराजः अनन्तरदिनतः एव अनासक्तः योगी एव शासनं
कृतवान् हा समीचीनं महोदय. अस्तु धन्यवादः सर्वेभ्यः. अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः. तत्र गीताञ्जलि भगिनी आरम्भं करोति वा भगिनी?
आं महोदय. एतत् भवदीयम्
तत्र एतत् भवतः तत्र भवदीयं नाम भवतः वस्तु अस्ति तत्र तत्र अत्र मूलविषयः अस्ति तत्र अस्माकं किम् अस्ति इति खलु जीवने अस्माकं किम् अस्ति इति.
कस्मिंश्चित् देशे कश्चन महाराजः आसीत् तत्र महाराजः आसीत् लघु कश्चन महाराज इत्युक्ते
कः योगः चन तत्र महाराजाः अनेकाः अनेके सन्ति किन्तु तेषु एकं महाराजं वयं मनसि चिन्तयामः तत्र एषः महाराजः इति अतः तत्र तद् वक्तुं कश्चन सर्टन् इति अर्थे खलु.
एवमेव देशे अपि कस्मिंश्चित् देशे इत्युक्ते बहवः देशाः सन्ति किन्तु किमपि एकं देशं स्वीकृत्य मनसि कस्मिंश्चित् देशे कश्चन राजः आसीत् तु लङ् अस्ति सः नितरां धर्मनिष्ठः दानशीलः च सः महाराजः
सः इति महाराज समीचीनं
नितरां धर्मनिष्ठ दानशील च इत्युक्ते सदा सर्वदा धर्मनिष्ठ इत्युक्ते धर्मस्य पालनं करोति एव अपि च दानशील अपि अस्ति सः
नाम दान धर्मनिष्ठः इत्युक्ते धर्मे एव तत्र
धर्मस्य पालनं
अपि धर्मस्य पालनं करोति अपि निष्ठा नाम तत्र धर्मनिष्ठा इत्युक्ते तत्र एव सः अस्ति ततः तत् स्थलं विहाय तत्र धर्मं विहाय सः अन्यत्र न गच्छति तत्र गृहनिष्ठः नाम तत्र सः गृहे एव तिष्ठति यथा वयं सर्वे इदानीं कुर्मः खलु कोविड् कारणतः तत्र गृहनिष्ठः सः धर्मनिष्ठः नाम सर्वदा धर्मपालनम् इति तत्र तदेव सः करोति तत्र कदापि तत्र अधर्मकार्यं सः न कृतवान् इति अर्थे अपि दानशीलः इत्युक्ते
दानशील इत्युक्ते सर्वदा दान करोति एव इत्युक्ते तस्य स्वभाव एव दानशील इत्युक्ते
दानशीलः तत्र समीचीनं भगिनि. अस्तु अपि तत्र विशेषणानि सन्ति तत्र विशेषणद्वयं महाराजस्य
पदस्य विशेषणं कदाचित् राजभवनं प्रति कश्चन तापसः आगतवान् तापसः आगतवान् कीदृश तापसः कश्चन समाज किमपि एकः तापसः अस्ति आगतवान् तव तु प्रत्यय कुतः आगतवान् इत्युक्ते कुत्र आगतवान् कदाचित् राजभवनं प्रति इत्युक्ते कदाचित् इत्युक्ते किमपि समय स्वीकृत्य मनसि राजभवनं प्रति
तत्र कदाचित् नाम वयं कदा इति तत्र सम्यक्तया न वक्तुं शक्नुमः किन्तु तत्र किञ्चित् कस्मिन् समये सः आगतवान् एकस्मिन् समये सः आगतवान् तत्र प्रति इति अस्ति अतः राजभवनम्
इति भवति
इति तत्र राजभवनं तत्र नपुंसकलिङ्गपदमेव किन्तु तत्र द्वितीयविभक्ति यतोहि तत्र प्रति अस्ति इति हा
विभक्ति अस्ति महाराजः अतीवसन्तोषेण तस्य प्रणामं कृतवान् सन्तोषेण इत्युक्ते तृतीय अस्ति सन्तोषेण महाराजः किं कृतवान् प्रणामं कृतवान् कस्य प्रणामं तापसस्य प्रणामं कृतवान् तदेव अतीवसन्तोषेण
तापसः तत्र प्रायशः तत्र
तापसः
तत्र अकारान्तपदमेव इति मन्ये तापसः
तापसस्य षष्ठी इति मन्ये महोदय
अपि सत्यं भगिनि तस्य अथवा साधुः इति अपि तत्र साधोः इति अपि तत्र वक्तुं तत्र महाराज तस्य तं तत्र तस्य प्रणामं कृतवान् तत्र प्रणमति इति तत्र प्रणमति अथवा तत्र तत्र किम् अस्ति प्रणमति तत्र नमति इति अस्ति वा तत्र
प्रणमति णम् आयाति महोदय तत्र णत्वं
णत्वम् अस्ति अपि तत्र नमति इति अस्ति अतः तत्र भूतकाले किं भवति अनमत्
प्रणमत्
प्रणामत् इति खलु
प्रणामत् क्षम्यतां
प्रणामत् इति किं भगिनि
प्राणमत्
ओ क्षम्यतां भगिनि धन्यवादः प्राणमत् समीचीनं भगिनि किं जानामि किमर्थम् अहं दोषेण उक्तवान् धन्यवादः भगिनि प्राणमत् इति
प्राणामत्
वा न तत्र अनमत् प्राणमत्
प्राणमत्
प्रयोगः अनमत् प्राणमत् वंशीसुध भगिनि नमस्कारः श्रीप्रिया भगिनि नमस्कारः तत्र कथां पठन्तः स्मः नमस्कारः भगिनि
परन्तु एषा कदा तु वयं पठितवन्तः इति मम मनसि अस्ति
सत्यं भगिनि सत्यं किन्तु उत्तमा कथा अस्ति चेत् बहुवारं पठामः
एवं वा अहं चिन्तितवती भवान् एषा कदा प्रेषितवान् एतत्तु वयं पठितवन्तः
सत्यं भगिनि
कोऽपि न उक्तवन्तः वा इतः परं महोदय
न न
अस्तु महोदय अस्तु
स्मरामि किन्तु न उक्तवन्तः
स्मरामि
किन्तु किन्तु तत्र यदि किमपि तत्र वयं पूर्वं पठितवन्तः किन्तु तद् बहुकालानन्तरं यदि पुनः पश्यामः तत्र ओ अस्मिन् एते अंशाः सन्ति वा अहं किमर्थं तत्र पूर्वं न मनसि स्थापितवान् अथवा स्थापितवती इति अपि भवति खलु अनुभवः
अवगमनं भिन्नरीत्या भवति एतत्
सत्यं
तत्र तु अस्माकम् अवगमनं न्यूना अस्ति अधुना तु किञ्चित् वर्धयति किल
अतः इदानीं तत्र अहं चिन्तयामि सर्वे अद्य तत्र बहु सन्तुष्टाः भवन्ति इति
किमर्थं
तत्र कथां इदानीं कथां सम्यक्तया अवगतवती अवगतवान् इति खलु शोभ भगिनी भवती किम
न महोदय एवम् एव उक्तवती भवतः किमपि उद्देशः आसीत् इति
केवलं तद् भगिनि तदेव
न सत्यं महोदय अधुना
भगिनी भवत्याः ध्वनि अधुना सम्यक् न
सुलभं दृश्यते खलु इदानीं
भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनी शोभा भगिनी किमर्थं न जानामि
अस्तु
सम्यक् अस्ति वा मम पार्श्वे अस्ति वा अस्तु पश्यामि
अस्तु इदानीं तत्र बहु तत्र प्रायशः वर्षं पूर्वम् एतत् एतां कथां पठितवन्तः इदानीं पश्यतु तत्र सर्वेषां ज्ञानं वर्धितम् अस्ति इदानीं
तेन सन्तोषः अभवत्
हा इति भगिनि हा अतः एव तत्र अस्तु उत्तमा कथा अस्ति अतः कारणद्वयम्
अधुना ज्ञातवती भवतः प्रियतमा कदा प्रियतमा
न न तत्र बालमोदिनी मध्ये तु अनेकाः उत्तमाः कथाः सन्ति भगिनि
सत्यं महोदय
अतः तत्र तत्र किमपि तत्र तत्त्वम् अस्ति तत्र सन्देशः अस्ति
तत्र बहु सम्यक् अस्ति
अतः तत्र अस्तु
महोदय तत्र भवदीयम् इति तत्र किं कीदृशः पदं
भवतः तत्र भारतीयः इति तत्र सम्बन्धः तत्र भारतस्य सम्बन्धः अस्ति तत्र इय प्रत्ययः अथवा किमपि अस्ति भगिनि तत्र किन्तु तत्र सम्बन्धः अथवा अत्र अपि तत्र षष्टि अर्थे
आम् किन्तु प्रत्ययः किम् अस्ति इति
तत्र इयम् इति तत्र तत्र इयः अथवा अयः किमपि अस्ति भगिनि न स्मरामि तत्र किन्तु भारतीयः भवदीयः अस्मदीयः युष्मदीयः तत्र प्रसिद्धः अस्ति खलु तत्र किं माया बजार् मध्ये स्मरन्ति वा तत्र माया बजार् दृष्टवन्तः वा माया बजार् इति तत्र संस्कृतस्य पाठनं करोति तत्र घटोत्कचस्य सः वदति अस्मदीयः अपि तत्र छात्राः वदन्ति असमदीयः इति
तत् न जानामि
पुनः तदपि द्रष्टव्यमस्ति उत्तमं चित्रमस्ति किन्तु इदानीम् अग्रे सरामः अस्तु तत्र इदानीं तत्र अस्तु तत्र वंशीसुध भगिनी भवती एव अग्रे पठति वा
महोदय द्वितीयपरिच्छेदः किल महोदय
तत्र
कुतः पठनीयम् अहं न अवगमिस्मृतवती
क्षम्यताम् उक्तवान् च इति
अस्तु अस्तु अहं भोः साधु महाराज भवतः आगमनेन मम राजभवनं पवित्रम् अभवत् एतत् न अभवत् न महोदय भोः साधु महाराज तत्र तु सम्बोधनमस्ति भो इति सम्बोधनं साधु महाराज इति सम्बोधना प्रथमा विभक्ति अस्ति भवतः आगमनेन मम राजभवनं पवित्रम् अभवत् इत्युक्ते तत्र कः अस्ति तत्र ऋषिः अस्ति वा किं
साधु साधु अस्ति तत्र तापसः तत्र यः तपः कृतवान् सः तापसः
धर्मनिष्ठम् उद्दिश्य महाराजः उक्तवान् भवतः आगमनेन यदा भवान् आगतवान् मम राजभवनस्य शोभा वर्धते इत्युक्ते पवित्रं
जातं तत्र अमलं तत्र यदि मलं किमपि आसीत् तत् सर्वं गतम् इदानीं पवित्रम् अस्ति स्वच्छम् अस्ति तत्र राजभवनं स्वच्छम् अभवत् तत्र भवतः आगमनेन नाम तृतीया किमर्थं तृतीया अस्ति तत्र किमर्थं तृतीया
भवतः इति षष्टि अस्ति आगमनेन इत्युक्ते तत्र करणरूपेण भवति महोदय
तत्र कारणेन तत्र अथवा करणेन तत्र तेन तत्र तेन कारणेन तत्र राजभवनं पवित्रम् अभवत् समीचीनम् अग्रे
अद्य अहं भवते अतिमूल्यम्
अत्यमूल्यम् तत्र मूल्यं नाम किं
मूल्यम् इत्युक्ते यत् वस्तु तस्य
तत्र पुस्तकस्य मूल्यं किम् इति प्रश्नः भवति किन्तु खलु तत्र पुस्तकस्य मूल्यं दशरूप्यकाणि इति सर्वं किन्तु अमूल्यं नाम
अमूल्यम् इत्युक्ते तस्य मूल्यं
न मूल्यं न वक्तुं शक्नुमः तत्र न निर्णेतुं शक्नुमः इदानीं तत्र अत्यमूल्यम्
इत्युक्ते उत्तमोत्तमं
तत्र अमूल्यानि वस्तूनि यानि सन्ति तेषु अति अमूल्यं किमपि तत्र अथवा तत्र कमपि तत्र मूल्यः तत्र उपहारः अत्र तु उपहारः अतः अत्यमूल्यः उपहारः
अपहारं ददामि भवते इति चतुर्थी विभक्ति अस्ति ततः चतुर्थी आवश्यकं कमपि इत्युक्ते तत्र नपुंसकलिङ्गम् अस्ति अतिमूल्यं कमपि द्वितीयविभक्ति अस्ति
उपहारः इति पुल्लिङ्गपदम् उपहारः इति पुल्लिङ्गपदम्
उपहारः उपहारमपि उपहारं ददामि इति अस्ति वदतु किं ददामि इति
अथवा तत्र किं ददामि इति स्थाने अन्यत् किं स्थापितुं शक्नुमः तत्र
किं ददामि स्थाने किं न अवगच्छामि महोदय एकवारं पुनः वदतु
तत्र किं ददामि इति स्थाने तत्र किं ददानि इति तत्र किमपि ददानि वा इति तदपि तत्र
लोट्लकारे
तत्र हा किं ददानि इति तदपि तत्र प्रायशः सम्यक् नास्ति किन्तु तदपि अस्मिन् सन्दर्भे भवितुम् अर्हति तत्र
परन्तु लोट्लकारे तु प्रार्थना अस्ति तदपि
अतः एव तत्र किन्तु तदपि अस्मिन् सन्दर्भे भवितुम् अर्हति अर्थः किञ्चित् भिन्नः किन्तु तदपि स्थापितुं शक्नुमः तत्र भवान् स्वीकरोति वा यदि अहं किमपि ददामि भवान् स्वीकरोति वा इति सः अर्थः भवति अत्र तु सः निश्चयं कृतवान् अहं ददामि एव इति कृतवान् निश्चयं कृतवान् तत्र तत्र सः न प्रार्थनां कृतवान् तत्र भवान् यदि अहं किमपि ददामि भवान् अङ्गीकरोति वा इति न पृष्टवान् केवलम् उक्तवान् महाराजः अस्ति खलु अतः
दातुम् उद्युक्तः अभवत्
अतः सः झटिति उक्तवान् अहं तत्र किं ददामि इति एव इदानीं प्रश्नः अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा भगिनि
आं महोदय तापसः उक्तवान् तदेव न महोदय
सत्यं भगिनि
तापसः उक्तवान् भवान् आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु इति तापसः उक्तवान् तापसः इत्युक्ते तपः करोति यः तपः
तत्र साधुः सः साधुः
भवान् आत्मनः भवान् इत्युक्ते
तत्र प्रथमतया लघुवाक्यं वदतु भगिनि तत्र कर्तृपदं क्रियापदं
ददातु इति क्रियापदं लोट्लकारे भवान्
भवान् ददातु भवान् ददातु इति लघुवाक्यं समीचीनं अग्रे किं भवति
आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु मह्यं तत्र चतुर्थी विभक्ति आत्मनः अत्यन्तं प्रियम् इत्युक्ते तस्य प्रियवस्तु
कस्य
महाराजस्य प्रियवस्तु
महाराजस्य अत्यन्तं प्रियं वस्तु
वस्तु किमपि अस्ति
यदस्ति यदस्ति
यदस्ति
तत्
मम
मह्यं ददातु अतः तत्र इदानीं तत्र तापसः उक्तवान् इदानीं भवती वदतु तत्र महाराजः तापसः किम् उक्तवान्
महाराजः
साक्षात् यदस्ति तद् न वदतु महाराजः किं करणीयम् इति वदतु महाराजः
तव
न स्वस्य महाराजः किं कर
स्वस्य प्रिय वस्तु
अत्यन्तं प्रियं वस्तु
किमपि अस्ति
यद् कियदस्ति तद् तत् कस्मै दातव्यं
मह्यं
दातव्यः तत् सः कस्मै दातव्यः अथवा तेन अस्तु तत्र सः किं वस्तु तत्र कस्मै ददाति तत्र
तापसाय
अथवा साधुवे ददाति इति इच्छा अस्ति तत्र तापसः अस्ति तस्य इच्छा अस्ति तत्र मह्यं ददातु अस्तु अग्रे
झटिति महाराजः उक्तवान् किम् अहं मम राज्यं कोशं वा समर्पयामि इति
अतः तत्र इदानीं किं चिन्तनं तत्र महाराजस्य अत्यन्तं प्रियं वस्तु किम्
तस्य राज्यम् अपि च कोशं
इति वार्ता अस्तु
अपि च आभरणानि
तत्र यत् तत्सर्वं समर्पयामि वा समर्पयामि इति तत्र हा ददामि अथवा समर्पयामि हा इदानीं तत्र अस्तु अग्रे तत्र तापसः किं वदति
तत्सर्वं प्रजाजनानां
नाम इदानीं तत्र पूर्णवाक्यं वदतु तत् सर्वं तत् नाम किं
तत् सर्वम् इत्युक्ते राज्यम् अपि च कोशं
हा सर्वं कोशे यत् यद् यानि वस्तूनि सन्ति तद् तानि सर्व तानि अपि
तानि सर्वाणि
अपि राज्यमपि हा तत् सर्वं कस्य अस्ति
प्रजाजनानाम् एव अस्ति न तु
हा प्रजाजनानाम् इत्युक्ते ते प्रजाजनाः के
प्रजाजनाः इत्युक्ते तस्य राज्ये वसति
हा तस्मिन् राज्ये ये जनाः वसन्ति तेषां तेषां हा तेषां तेषां तत्र अधिकारः अस्ति तत्र तेषाम् अस्ति तत्र राज्यमपि कोशं न तु
भवान्
भवतः न तु भवदीयं तानि न तु भवतः
महोदय भवदीयम् इत्युक्ते युवर्स् अस्ति न महोदय
भवतः भवदीयम् इति युवर्स् नास्ति तत्र भवत् भवत् शब्दस्य भवतः युष्मदस्ति चेत् युष्मदीयः युष्मदीयः युष्मदीयम् अस्मदीयम् इति तत्र भवान् इति तत्र त्वम् इति चिन्तयति चेत् अस्तु सत्यं तत्र तव इति अर्थे किन्तु भवतः इति समीचीनं भवति खलु
न तु भवतीयम् इत्युक्ते
भवतः नास्ति
भवतः नास्ति
हा भवतः तु नास्ति एव भवतः नास्ति चेत् तत्र प्रश्नः कस्य तत्तु प्रजाजनानाम् अस्ति हा किमर्थम् इति अग्रे वदति किमर्थं
भवान् तु तस्य संरक्षणमात्रं करोति
हा अतः महाराजस्य कार्यं किम् अस्ति तत्र राज्यं प्रति अपि कोशं प्रति
रक्षणं
हा संरक्षणं हा समीचीनं रक्षणं तत् तद् तदेव तस्य कार्यमस्ति तत्र राज्यस्य प्रति अथवा कोशस्य प्रति अथवा कोशं प्रति राज्यं प्रति तद् हा तदेव कार्यम् अस्तु
उपरि महाराजस्य किमपि
अधिकारः नास्ति
अधिकारः नास्ति
हा केवलं तत्र संरक्षणं करणीयं तत्र हा इति वार्ता अस्तु समीचीनं भगिनि
संरक्षणम् अपि च रक्षणं
सम्यक् रक्षणं भगिनि तावदेव रक्षणमपि संरक्षणं हा अस्तु अग्रे अवदत् एकनिमिषं भगिनि अग्रे तत्र श्रीप्रिया भगिनी अग्रे पठति वा
न पूर्णं करोमि महोदय इति तापसः अवदत्
हा अस्तु 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 इति तापसः अवदत् अस्तु धन्यवादः भगिनि अस्तु हा अस्तु अग्रे स्वीक्रिया भगिनि
एवं चेत् राजभवनं तथाधिकं वा ददामि एतत्तु मदीयमेव महाराजः उक्तवान्
तत्र राज्यं मम नास्ति अपि तत्र कोशं मम नास्ति चेत् अहं किं करोमि इति सः चिन्तयित्वा सः किं वदति
अहं राजभवनं रथाधिकं रथादीनि अहं ददामि राजभवनं मम राज्यं मम नास्ति कोशम् अपि मम नास्ति प्रजानाम् अस्ति इति भवान् चिन्तयति चेत् अहं मम राजभवनम् अथवा अनन्तरं
यस्मिन् भवने अहं वसामि तत्तु मम भवनम् अस्ति राजभवनम् अस्ति तदहं दातुं शक्नोमि हा तस्मिन् मम अधिकारः अस्ति
अस्ति महाराजः तपस्वीं वदति
तपस्वी तत्र तपस्विनं प्रायशः खलु भगिनि
तपस्विनं क्षम्यता
हा तपस्विनं वदति हा हा अग्रे
तापसः किञ्चित् हसित्वा उक्तवान् महाराज भवान् विस्मृतवान् अस्ति यत् एतदपि प्रजानाम् एव
न प्रजाजनानां प्रजाजनानां
प्रजाजनानाम् एव इति भवतः कार्ये सौविध्यकल्पनाय एव एतद् भवते दत्तं भवति यदा सः राजा महाराजः वदति अहं मम राजभवनम् अनन्तरं रथम् इत्यादीनि वस्तूनि भवन्तं ददामि
भवते ददामि
भवते ददामि इति, तदा पुनः साधु महाराजः वदति एतदपि एतानि वस्तूनि अपि भवतः नास्ति इति।
तत्र तत्सर्वमपि तत्र यद् सः महाराजः दैनन्दिककार्याणि कर्तुम् उपयोगं करोति तानि वस्तूनि सर्वाणि तु तस्य नास्ति इति तत्र तापसः वदति अपि कारणमपि वदति किमर्थं ते सर्वाणि दत्तानि महाराजाय सौकर्यस्य कल्पनाय सौकर्याय। समीचीनं भगिनि। तत्र सौविध्य नाम सुविधा, तत्र समीचीनं सुविधायाः भावः सौविध्य तदर्थम् अथ सौविध्यर्थम् अथवा सौविध्यकल्पनाय सौविध्यं तत्र सुविधा भवतु इति इति आशया एतत् सर्वं भवते दत्तं भवति एतत् सर्वं दत्तं भवति अतः तत्र भवतः अधिकारः तस्मिन् तेषु वस्तुषु तत्र भवतः अधिकारः तत्र दातुम् अधिकारः नास्ति किन्तु तत्र उपयोगं कर्तुम् अर्हता अस्ति किन्तु दातुं तत्र भवान् न शक्नोति यतोहि तत् भवतः नास्ति इति। अस्तु समीचीनं भगिनि। अस्तु अग्रे ललिता भगिनी अग्रे पठति वा?
पठामि महोदय। तर्हि मम शरीरमेव ददामि एतद् वा मदीयम् इति अङ्गीकरोति खलु?
इदानीं तत्र किं राज्यं मम नास्ति, अपि तत्र किं कोशं मम नास्ति, राजभवनं मम नास्ति, रथं मम नास्ति। अतः तत्र
राज्ञः शरीरमेव ददामि इति राजा
इति सः वदति अहं मम शरीरं यदस्ति तद् अहं भवते ददामि एतद् वा एतद् शरीरं वा मदीयं मम इति मम अस्ति इति अङ्गीकरोति खलु इति सः पृच्छति।
तत् भवतः मातापितृभ्यां दत्तं शरीरं तु मातापितृभ्याम् इत्युक्ते
मातापितरौ
पितृभ्यां चतुर्थीविभक्ति मातापितरा महाराज
न पितृभ्यां दत्तम् इति तत्र विभक्ति का तत्र
बहुवचने
न पितृ बहुवचनं न पितृभ्याम् इति
पितृभ्यां द्विवचनमस्ति
अपि तत्र विभक्ति का तत्र
भवतः चतुर्थी महोदय
न तत्र न किन्तु तत्र अस्तु भगिनि भगिनि इति एतत् चिन्तयतु भवती बालकाय पुस्तकं ददाति अस्तु इदानीं तद् कर्मणि रूपे वदतु तत्र पुस्तकं दत्तमस्ति
भवती
अथवा तत्र किमपि नाम स्वीकुर्मः तत्र अस्तु सविता बालकाय पुस्तकं ददाति इदानीं तत् कर्मणि रूपे वदतु किं भवति
सवितया
बालकाय
पुस्तकं
दत्तम् इति स्थापितुं शक्नुमः खलु कर्मणि नास्ति किन्तु तत्र तृतीयरूपं तत्र दत्तम् इति भवति खलु तत्र सविता इति स्थाने किम् अभवत् सवितया इति उक्तवती खलु
तृतीया
तादृशं तत्र तौ दत्तवन्तौ मातापितरौ मातापितरौ दत्तवन्तौ इदानीं तत्र तृतीया किं भवति मातापितृभ्यां दत्तं शरीरं भवतः शरीरं भवतः शरीरं किं भगिनि
अहं चिन्तितवती दत्तं दा
सत्यं सत्यं हा सत्यं सत्यं किन्तु तत्र हा समीचीनं तेन कारणेन भवती चिन्तितवती समीचीनं भगिनि हा किन्तु तत्र तृतीया हा ताभ्यां दत्तं मातृपितृभ्यां दत्तं तेन कृतं न तेन कृतम् अथवा तैः दत्तम् अथवा ताभ्यां दत्तम् अत्र तत्र मातापितरौ तत्र दत्तवन्तः तत्र शरीरं दत्तवन्तः दत्तवन्तौ इति अस्ति चेत् हा दत्तवन्तौ इति अस्ति चेत् तत्र भवतः इति स्थाने किं भवति मातापितरौ दत्तवन्तौ शरीरं दत्तवन्तौ भवतः शरीरं दत्तवन्तौ किन्तु तत्र कस्मै दत्तवन्तौ भवते
भवते
हा भवते भवतः शरीरम् अथवा केवलं शरीरं दत्तवन्तौ तदेव अस्ति अत्र भवतः मातापितृभ्यां भवतः शरीरं मातापितृभ्या पितृभ्यां दत्तं शरीरम् इति अग्रे
तदुपरि भवतः पुत्राणाम् अधिकारः भवति न तु
भवतः
तापतः अवदत्
नाम तद् तद् इदानीं किमस्ति तद् नाम तत् शरीरं तद् तत् शरीरं तस्य उपरि तस्य शरीरस्य उपरि भवतः
शरीरे
राज्ञः शरीरस्य उपरि
भवतः पुत्राणां
राज्ञः पुत्राणां राज्ञः पुत्राणाम् अधिकारः
भवति
न तु साक्षात् राज्ञः अधिकारः किमर्थम्
कारणं शरीरमपि किमर्थं यदा राजा अपगतः तत्र
अपगतः नाम मरणं प्राप्नोति हा समीचीनं भगिनि हा समीचीनं समीचीनं हा समीचीनं तस्मिन् समये किं तत्र पुत्राणाम् अधिकार तत्र कार्यम् अस्ति तत्र तेषां कार्यम् अस्ति तत्र अतः तत्र तावत्पर्यन्तं तत्र तेभ्यः शरीरं दातव्यः शरीरं दातव्यं भवति खलु अतः तत्र कार्यम् अस्ति इति कृत्वा तेषां तत्र पुत्राणां कार्यं तत्र भवति इति कृत्वा शरीरस्य उपरि अपि तत्र महाराजस्य अधिकारः नास्ति
वास्तविकतया पुत्राणामपि नास्ति भगवन्तः अस्ति
असत्यं सत्यं हा भगवतः एव तत्र सर्वं किन्तु हा हा तत्र सत्यं भगिनि हा अस्तु धन्यवादः
महोदय एकः प्रश्नः तत्र राजा इति अस्ति चेत् राज्ञः इति भवति महाराजः अस्ति चेत् महाराजस्य इति भवितुम् अर्हति
सत्यं भगिनि हा महाराजः इति तत्र अकारान्तपदं भवति भगिनि तत्र महाराजः केवलं राजा हा महाराजः इति अकारान्तपदम् तत्र समासः तत्र किमपि तत्र हा किन्तु तत्र अन्ते तत्र अकारान्तपदं भवति अतः तत्र अभ्यासपुस्तक वर्गे तत्र किं महाराजः इति एव तत्र दशरथः महाराजः इति एव वदामः हा न तु राजः यतोहि तत्र राजन् इति नकारान्तपदं भवति अपि षष्टि राज्ञः इति भवति हा किन्तु महा इति तस्य उपयोगं कृत्वा यथा तत्र पतिः इति विशेषशब्दः अस्ति भगिनि किन्तु तत्र हा
तत्र सीतापतिः भवति चेत् हरिः वत्
तादृशं
विभक्तयः
भवन्ति तादृशम् अत्रापि अतः सौलभ्यं समीचीनम् अस्तु अग्रे तत्र एतावत् तत्र सर्वे पठितवन्तः उक्तवन्तः अस्तु तत्र इदानीं तत्र नरेश महोदय किञ्चित् विवृणोति वा
अधुना तु महाराजः विस्मयेन मूकः अभवत्
सः किम् अभवत् मूकः अभवत् मूकः नाम
वदनं न शक्नोति
हा तत्र किं वक्तुम् किं वदामि इति सः न ज्ञातवान् अतः तत्र किमपि न समीचीनं मूकः नाम वक्तुम् अशक्तः अभवत् सः महाराजः विस्मयेन नाम आश्चर्येण तत्र चकितात् सः बहु चकितः अभवत् तत्र किम् अहम् एतावत् अहं चिन्तितवान् अहं महाराजः अस्मि तत्र मम अनेकानि वस्तूनि सन्ति इति इदानीं किम् अभवत्
किमपि मम नास्ति
अतः तत्र बहु चकितः अभवत् मूकः अभवत् अग्रे
सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान् सः चिन्तनं कर्तुं न शक्नोति किं वक्तव्यम्
इति समीचीनं
तदा तापसः एव उक्तवान् राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव तस्य दानं करोतु तापसः अवदत् राजन राज प्रति अवदत् भवदीयतौ तु केवलम् अहङ्कारः अस्ति अहङ्कारः भवदीय अस्ति तत् एव दानं करोतु अन्य किमपि
तम् अहङ्कारमेव
दानं करोतु
अहङ्कारपुल्लिङ्गपदम् अतः तम् अहङ्कारम् एव दानम् अथवा तस्य दानमेव तस्य अहङ्कारस्य दानं करोतु
किमपि भवदीय नास्ति
यतः
अहङ्कारः एव
सर्वविधस्य अपि बन्धनस्य
कारणम् इति
तत्र किमर्थम् अहङ्कारः तत्र सः वदति तत्र अहङ्कारं त्यजतु नाम अहङ्कारस्य अर्पणं मह्यं करोतु इति सः वदति खलु साधु तापसः किमर्थं सः तादृशं वदति अहङ्कारस्य
बन्धनस्य कारणम् अस्ति
तत्र बन्धनस्य इति पदस्य विशेषणमस्ति वा
बन्धनस्य सर्वविधस्य
तत्र केवलम् एकस्य बन्धनस्य इति न तत्र खलु तत्र बन्धनमिति तत्र शारीरिकबन्धनम् अस्ति मानसिकबन्धनम् अस्ति तत्र अपि कर्मबन्धनम् अस्ति कार्मिकबन्धनम् अस्ति तत्र अनेकविधबन्धनानि सन्ति किन्तु तत्र सर्वविधस्य तत्र बन्धनस्य तत्र एक तत्र द्वैविध्यं त्रैविध्यम् इति न तत्र अनेकविध तत्र अतः तत्र यद्यत् किमपि भवति तत्र बन्धनं तत् तत्र तेषां सर्वेषां तत्र कारणं किमस्ति अहङ्कारः एव कारणमस्ति तत्र तेषां बन्धनानां सर्वविधान् तत्र सर्वविध इति षष्ठी बहुवचनं किम् अस्ति?
सर्वविधानां,
हा सर्वविधानां बन्धनानां कारणम् अहङ्कारः
अस्ति
अस्ति. अतः तत्र तद् तत्र तम् अहङ्कारं मह्यं तस्य दानं, तस्य अहङ्कारस्य दानं करोतु अथवा तम् अहङ्कारं मह्यं ददातु इति इति. समीचीनम् अस्तु.
महाराजः महाराजः अनन्तरजनतः एव अनासक्तः योगी इव शासनं कृतवान्.
हा तत्र अनन्तरदिनतः नाम तत्र अग्रिमदिनतः, तत्र अद्य अस्ति, ह्यः आसीत्, श्वः भवति, तत्र अनन्तरदिन नाम श्वः, तत्र अग्रिमे दिनतः एव तत्र सः किं कृतवान्?
महाराज योगी शासनं कृतवान्.
शासनं नाम राज्यस्य पालनं, तत्र शासनं नाम तत्र शासनं नाम तत्र किं किं राजा करोति, तत्र शासनानि सन्ति अपि तत्र शासनं कृतवान् नाम पालितवान् अत्र तावदेव. कीदृशपालनं कृतवान् सः?
योगी इव
अनासक्तः योगी इव केवलं योगी न, तत्र अनासक्तः योगी इव नाम तत्र राज्यं तस्य नास्ति किन्तु तस्य पालनं करणीयं, तस्य कार्यमस्ति. अतः तत् तत्र तत् किं फलं विना कार्यं कुरु इति अस्ति खलु,
फलं विना
हा तत्र केवलं कार्यं करणीयं, तत्र फलस्य चिन्तनं मास्तु इति. अतः तत्र केवलं कार्यं करणीयम् इति, तत्र तादृश अनासक्तः योगी इव सः शासनं कर्तुं तत्र
केवलं राज्यं पालनं कृतवान्.
हा तत्र सम्यक्तया नाम उत्तमराजा अभवत्, तत्र तस्य उत्तमं पालनम् अग्रिमदिनात् एव अग्रिमदिना आरभ्य अभवत्, तत्र पालनम् अभवत् इति तत्र अस्तु. समीचीनं, हा धन्यवादः महोदय. अस्तु तत्र अस्यां कथायां कोऽपि प्रश्नः अस्ति वा
महोदय? प्रश्नः अस्ति तत्र भवान् राजा तु अहङ्कारः दत्तवान् किल, तत् तर्हि एषः भवदीयम् इति वक्तव्यं किल कथायाः शीर्षिका, एतत् किमर्थम् उक्तम्?
ओ एतत् भवदीयं तत्र नपुंसकलिङ्गे अस्ति, हा एतत् भवदीयं
इति वक्तव्यं न, तत्र तु अहङ्कारः पुल्लिङ्गशब्दः.
हा सत्यं भगिनि, हा एषः भवदीयः इति, हा समीचीनं भगिनि, हा सत्यमेव. हा अपि तत्र एतदपि पूर्वम् उक्तवन्तः, तत्र स्वकीयः इति स्वस्य इति विषये सः एव नियमः अत्रापि भवति, स्मरन्ति वा?
पुनः पुनः एकवारं वदतु महोदय.
हा तत्र नाम तत्र अहङ्कारः इति अस्ति, तत्र पुरुषः अस्ति चेत् तत्र पुरुषस्य अहङ्कारः इति अथवा तस्य अहङ्कारः इति वदामः, भवतः अहङ्कारः, अथवा महिला अस्ति चेत् भवत्याः अहङ्कारः इति वदामः खलु. तत्र भवतः अस्ति चेत् तत्र भवतः कस्य इति तत्र, किन्तु तत्र भवदीयः इति अस्ति चेत् तत्र भवदीयः तत्र महिला वा अथवा पुरुषः वा, तत्र भवदीयः इति एव भवति. तत्र भवदीयः किमर्थम्? अहङ्कारपुल्लिङ्गः इति कृत्वा भवदीयः अहङ्कारः इति भवति. अतः तत्र हा तत्र स्वकीयः, तत्र स्वकीयः अहङ्कारः.
तर्हि एषः भवदीयः इति वक्तव्यं किल?
हा एषः भवदीयः, सत्यम् एषः भवदीयः एव, अन्यत् किमपि भवदीयं नास्ति. हा समीचीनं भगिनी. अस्तु अन्य कोऽपि प्रश्नः अस्यां कृते?
बहु सम्यक् कथा महोदय.
आं भगिनि, हा अस्तु भगिनि, अस्तु. तत्र यथा वंशीसुतभगिनी उक्तवती एतां कथां पूर्व
वयं तु दत्तवन्तः महोदय भवदीयमेव दत्तवन्तः पूर्वमेव
किन्तु तत्र इदानीं पश्यतु तत्र एतादृशं कार्यं भवन्तः सर्वे कर्तुं शक्नुवन्ति खलु कथायाः पठनमपि तत्र विवरणं किं किं के अंशाः सन्ति कथायाम् इति अतः तत्र एतादृशं कार्यं यदि ते भवन्तः सर्वे कुर्वन्ति चेत् बहु लाभः भवति
महोदय एतत् इति अस्ति खलु तत्सर्वं भवतः राज्यं मम राज्यं सर्वम् इति सूचयति वा राज्यं तत्सम्बन्धितानि वस्तूनि इति सूचयति वा एतत् भवदीयम् इति शीर्षकमस्ति खलु
शीर्षकं हा सत्यं भगिनि तत्र एतत् भवदीयम् इति तत्र हा तत्र एतत् तव इति हा एतत् तव अस्ति किन्तु यथा वंशीसुधभगिनी उक्तवती तत्र वस्तुतः तत्र केवलं तत्र अहङ्कारः एव भवदीयः इति हा किन्तु तत्र यदस्ति एतद् भवदीयम् इति तस्य चिन्तनम् आसीत् खलु तत्र राजा सर्वदा वदति एतत् मदीयम् अस्ति किन्तु सः वदति एतद् भवदीयं तत्र डाट् डाट् नाम नास् भवदीयं नास्ति हा एतद् भवदीयं नास्ति राज्यं भवदीयं नास्ति एतत् कोशं भवदीयं नास्ति एतत् शरीरं भवदीयं नास्ति एतत् राजभवनं भवदीयं नास्ति इति तत्र सर्वत्र प्रायशः एतत् भवदीयं नास्ति इति स्थापितुं शक्नुमः तत्र नास्ति
एतत् भवदीयं किम् अस्ति इति एक्स्क्लमेशन् मार्क् अपि अस्ति तत्र न
हा सत्यं भगिनि सत्यं भगिनि एतद् भवदीयं वा इति
महोदय यदि वयं न जानीमः लिङ्ग किम् अस्ति लिङ्गं तदेव
नपुंसकलिङ्गं सत्यं भगिनि हा एक एकवचने एव सत्यं भगिनि हा सत्यं भगिनि हा अतः तत्र प्रायशः हा एषः अर्थः प्रायशः भवेत् तत्र राजा महाराजा वदति खलु अहं राज्यं कोशं वा समर्पयामि इति तत्र राज्यम् इति अतः तत्र सः तापसः चकितः अस्ति राज्यं भवदीयम् एतद् राज्यं भवदीयं वा इति अतः तत्र प्रायशः एक्स्क्लमेशन् मार्क् तदपि अर्थः भवेत् इति मन्ये समीचीनम् अस्तु
महोदय अस्मदीयम् इति तद् मम इति
सत्यं भगिनि हा अस्मदीयं मम इति अर्थे युष्मदीयम् अथवा युष्मदीयः इति तव इति युष्मदीयं हा इति
भवदीयं भवदीयम् आदरेण भवति परन्तु युष्मदीयं तु आदरं नास्ति वा तत्र युष्मदीयं भवदीयं पर्याय
सत्यं भगिनि यथा तत्र हा युष्मदस्ति चेत् तत्र तत्तु मध्यमपुरुषः मध्यमपुरुषरूपम् अस्ति तत्र हा तावत्
ममकारं त्यजनम् इति सः कथा वदति वा
सत्यं भगिनि हा सत्यं सत्यं ममकारं नाम ममकारं तत्र ममता इति तदपि भवति ममता इति न ममता इति अर्थद्वयमस्ति खलु
ममता इति भवति महोदय तत्र ममता इति तल् प्रत्ययः तदेव अस्ति तत्र
सत्यं भगिनि किन्तु हा किन्तु साधारणतया सत्यं भगिनि किन्तु करुणा कारुण्यम् इति अपि वयं चिन्तयामः खलु
किन्तु तदपि भवति
हा सत्यं सत्यं हा
मम इति करोति ममता इति भवति
सत्यं भगिनि
तत्र अहङ्कारं तदेव वदति अहम् इति कारम्
अहम् इति तत्र अहम् इति प्रथमा विभक्ति मम इति षष्ठी विभक्ति तावदेव
अहम् इति कारं तत्र कारः इति अस्ति इति कृत्वा अहं कारः इति यथा ककारः किमपि कारः महोदय कर्मकारः इति अहंकारः इत्युक्ते सामान्यतया वयं चिन्तयामः गर्वः इति तत्र तथा नास्ति अहम् इति भावना अस्ति तत् त्यजनीयम् इति त्यक्तव्यं
भावः त्यक्तव्यः
त्यक्तव्यः
अस्तु समीचीनम्. अतः तत्र सर्वे सन्तुष्टाः सन्ति वा इदानीं? कथा सुलभा अस्ति वा?
आं सुलभम्.
तत्र ये अंशाः सन्ति कथायां सर्वान् अंशान् इदानीं तत्र अवगन्तुं शक्नुवन्ति वा सर्वे?
आं महोदय.
अस्तु 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 समीचीनम्. अतः तत्र एतादृशीं कथां स्वीकृत्य तत्र वर्गे तत्र प्रतिपादयितुं शक्नुवन्ति भवन्तः सर्वे खलु? तत्र बालमोदिनी तत्र तु अनेकाः कथाः सन्ति, सर्वे तत्र सरलाः इति न वक्तुं शक्नुमः. किन्तु साधारणतया सरल तत्र अस्माकं स्थिरे तत्र स्थिरायामेव अस्ति. अतः तत्र किञ्चित् तत्र प्रयत्नं कुर्मश्चेत् तत्र अवगन्तुं शक्नुमः वयं.
महोदय, कथा वारं वारं पठनीयं महोदय, तदेव
सत्यं भगिनि. सत्यं भगिनि, सत्यं सत्यं
शक्यते महोदय. भवान् कथा प्रेषयतु, तस्मिन् किमपि सन्देहाः सन्ति तत् तस्य विषये चर्चयिष्यामः कक्षायां. पठनस्य समयः भवति वा न जानामि, परन्तु यदि कथा प्रेषयतु तस्मिन् ये
न भगिनि न भगिनि न न किन्तु तत्र न न ये तत्र पूर्वमपि वयम् अनेकाः कथाः पठितवन्तः. अतः तत्र तासु कथासु तत्र कामपि स्वीकृत्य अपि तत्र पुनः प्रतिपादनं कर्तुं शक्नुवन्ति. अपि तत्र यदि कापि कथा भवतु तत्र तां कथां तत्र गूगल् शीट् मध्ये तत्र लिङ्क् स्थापयित्वा वक्तुं शक्नुवन्ति खलु? तत्र अस्तु, तत्र वर्गे वयम् एतां कथां पठामः, अतः एकवारं तत्र पठित्वा आगच्छन्तु सर्वे. तत्र कथायाः विषये अहं वदामि. अतः तत्र दशनिमेषेषु यत्किमपि यत् वर्णनं कर्तुं शक्नुमः तत्र सर्वे अंशाः तत्र तेषां विषये तत्र वक्तुं शक्नुमः न वा इति प्रश्नः मास्तु. यावत् कर्तुं शक्नुमः तत्र दशनिमेषेषु अथवा पञ्चदशनिमेषेषु तावत् कुर्मः. प्रथमवारम् एतत् कुर्वन्तः स्मः, तदनन्तरं वयमपि तत्र जानीमः किं कर्तुं शक्नुमः किं न कर्तुं शक्नुमः इति. तदनन्तरं द्वितीय पर्यायः स्वीकृत्य तत्र पर्यायं स्वीकृत्य तत्र पुनः अथवा किञ्चित् परिवर्त्य अपि पुनः कुर्मः. तत्र लाभायाः एव इति मन्ये, यतोहि एतादृशं कुर्मश्चेत् अग्रे गत्वा अथवा तत्र भवत्सु तु तत्र इदानीमेव तत्र वर्गम् अपि चालयन्ति केचन, अतः तत्र लाभायाः इति अवगच्छन्ति. अपि अन्ये अपि तत्र वर्गं चालयितुं शक्नुवन्ति इति विश्वासः भवति. अपि विश्वासः यः अस्ति सः अपि वर्धते.
महोदय, अधुना अहम् एकं कथं मया एका कथा पठितं, यदि स्वस्य वाक्ये लिखामः चेत् सोपानानि सन्ति वा महोदय? लङ् लकार उपयोगं कुर्मः अथवा लोट् लकार?
सत्यं भगिनि, साधारणतया प्रथमवारं तत्र सरलवाक्यं लिखतु, लट् लकारे सर्वं लिखतु, अपि तत्र केवलं कर्तृपदं कर्मपदं क्रियापदं स्थापयतु. तदनन्तरं तत्र अथवा तत्र वाक्यानां तत्र शैली वयं जानीमः खलु, तत्र यदि तर्हि तादृशवाक्यं कर्तुं शक्नुमः, यः सः इति वाक्यं कर्तुं शक्नुमः, तव तु भवति चेत् क नियमाः के इति जानीमः. अतः तत्र सर्वं तत् चिन्तयित्वा तादृशानि वाक्यानि यदि उपयोगं कुर्मश्चेत् तत्र
गतवासरे मया लिखितम् अस्ति न महोदय
अस्ति अस्ति भगिनि भगिनि इदानीं तत्र अहं न सम्यक्तया दृष्टवान् दृष्ट्वा वदामि भगिनि
न महोदय आङ्ग्लभाषायाम् अस्ति संस्कृते कथं वदामि इति वदति वा महोदय
हा तत् किं कथा वा अथवा
जड्जिङ्ग् ए पर्सन् डस् नाट् डिफैन् हू दे आर् इट् डिफैन्स् हू यु आर्
अस्तु उत्तम अभ्यासः तत्र निमिषं यावत् तत्र सर्वे तत्र चिन्तयन्तु अपि वदन्तु केवलम् अहम् इति न तत्र सर्वे वक्तुं शक्नुवन्ति
जड्जिङ्ग् ए पर्सन् डस् नाट् डिफैन् हू दे आर् इट् डिफैन्स् हू यु आर्
कोऽपि कापि वक्तुम् इच्छति वा
Say one more time, Usha. What is that?
Judging a person does not define who they are. It defines who you are.
Who they are. Judging a person.
अस्तु भगिनि प्रायशः तत्र एतादृशं वर्गे कर्तुं साधारणतया न शक्नुमः यतोहि तत्र किञ्चित् चिन्तनं करणीयमस्ति अतः तत्र इदानीं तत्र यदि तत्र एकनिमिषं यावत् तत्र अपेक्षां प्रतीक्षां कुर्मः यदि न कोऽपि न प्राप्नोति अग्रे सरामः
महोदय तत्र गीताञ्जलिभगिनी अद्यतनस्य दिनाङ्कं लिखितवती महोदय
अद्यतनदिनाङ्कं वा अद्य वा गीताञ्जलिभगिनी अहं न दृष्टवान् इति वा
महोदय कदापि भवितुम् अर्हति महोदय किमपि
अस्तु 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 भगिनि अस्तु भगिनि अहं तत्र न दृष्टवान् तत्र अहं लिङ्क् प्रेषितवान् किन्तु तदनन्तरं न दृष्टवान् अस्तु ओ भवती
अद्यतनस्य इति भवति वा
अद्यतन एव भगिनि तन नाम तन इति षष्टि अर्थे एव अद्यतन 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 तत्र किम् अभ्यासपुस्तके अपि अस्ति खलु तत्र अद्यतनपत्रिका अद्यतन अद्यतन नाम षष्टि अर्थे
मम पार्श्वे एक अनुच्छेदम् अस्ति
भवती प्रेषितवती
तत्र सन्देहः अपि अस्ति मम
अस्तु भगिनि तत् तद् दृष्ट्वा अहम् ईमेल् द्वारा प्रेषयामि भगिनि अस्तु तत्र तत्र कुत्र भवत्याः तत्र सन्देहः अस्ति इति तत्र तदपि किञ्चित् लिखतु भगिनि अस्तु 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 तर्हि इदानीं तत्र किञ्चित् अग्रे सरामः तर्हि तत्र श्लोकाः आसन् तत्र किन्तु तत्र श्लोकान् सर्वे पठितवन्तः न वा इति न जानामि तत्र किम् अद्य श्लोकान् कुर्मः वा अथवा अग्रिमवर्गे
प्रेषितवान् वा महोदय
न तत्र न किन्तु तत्र पुस्तके श्लोकाः आसन् खलु अस्तु अतः तत्र अहम् अग्रिमवर्गे तत्र गृहपाठरूपेण तत्र प्रेषयामि तत्र सर्वान् श्लोकान् एकवारं पठित्वा आगच्छन्तु इति यतोहि तत्र स्मरणं भवति नो चेत् तत्र अतः अद्य तत्र किं कुर्मः तत्र परिचयरूपेण अद्य अग्रिमविषयः आरम्भं कुर्मः तर्हि तत्र सङ्ख्या इति विषयः अग्रे भवति अस्तु अस्तु तर्हि तत्र सङ्ख्या इति विषये तत्र अस्तु तत्र भेद भगिनी भवती एव पठतु अग्रे दशमपाठः
दशमपाठः गणनां कुर्मः गणनां कुर्मः इत्युक्ते
गणयामः
गणयामः सङ्ख्यासु लिङ्गभेदः विशेषणविशेष्यभावः तत्र पुल्लिङ्गे एकः बालकः स्त्रीलिङ्गे एका बालिका नपुंसकलिङ्गे एकं दूरदर्शनं तत्र बालकः तस्य विशेषणमस्ति एकः बालकः बालिका स्त्रीलिङ्गे अस्ति तस्य विशेषणं स्त्रीलिङ्गे एका भवति. दूरदर्शनं नपुंसकलिङ्गे अस्ति, तस्य विशेषणम् एकम् अस्ति. तदेव एकशब्दस्य प्रातिपदिकस्य पुल्लिङ्गे एकः भवति, स्त्रीलिङ्गे एका भवति, नपुंसलिङ्गे एकं भवति.
हा समीचीनं.
द्वौ युवकौ, द्वे महिले, द्वे फले. तत्र एकः द्विशब्दस्य द्वौ इति द्विवचनरूपमस्ति. द्वौ पुल्लिङ्गे, द्वौ युवकौ पुल्लिङ्गे अस्ति, तस्य विशेषणं द्वौ पुल्लिङ्गे अस्ति. महिला स्त्रीलिङ्गे अस्ति, महिले द्विवचनं स्त्रीलिङ्गे, तस्य विशेषणं द्वे द्विशब्दस्य द्वे भवति. फले, फलं शब्दस्य द्वितीय द्विवचनं फले अस्ति, तस्य नपुंसकलिङ्गे विशेषणं द्वे अस्ति. सो द्वौ, द्वे, द्वे.
समीचीनम्. अस्तु, इदानीं तत्र त्रयः इति,
त्रयः छात्राः, तिस्रः नर्तक्यः, त्रीणि पुष्पाणि. तत्र छात्राः, नर्तक्यः, पुष्पाणि, एतत् सर्वं बहुवचने अस्ति. तदेव तत्र विशेषणमपि बहुवचने अस्ति. त्रयः, त्रिशब्दस्य बहुवचनरूपं त्रयः पुल्लिङ्गे, त्रयः अस्ति. तद् छात्राः अस्य विशेषणम् अस्ति, त्रयः छात्राः. तिस्रः तच्छब्दस्य, त्रिशब्दस्य स्त्रीलिङ्गे बहुवचनरूपमस्ति तिस्रः. तिस्रः नर्तक्यः, नर्तकी शब्दस्य बहुवचनं नर्तक्यः, तस्य विशेषणं तिस्रः. पुष्पाणि अपि बहुवचने अस्ति. पुष्पाणि, पुष्पं शब्दस्य बहुवचनरूपं पुष्पाणि, तस्य विशेषणं त्रीणि,
त्रीणि पुष्पाणि
बहुवचनं.
समीचीनं भगिनी. अस्तु, त्रीणि पुष्पाणि, समीचीनं भगिनी. अस्तु, अग्रे तत्र उषा भगिनी, अग्रे तत्र चत्वारः,
चत्वारः पत्रकाराः पुंलिङ्गे, चतस्रः कूप्यः, कूपी इति स्त्रीलिङ्गे अस्ति, अतः चतस्रः कूप्यः बहुवचने. चत्वारि छत्राणि, छत्रम् इति नपुंसकलिङ्गे अस्ति, अतः चत्वारि छत्राणि बहुवचने.
इदानीम् अग्रे
पञ्चवैद्याः बहुवचने अस्ति, पञ्च. पञ्च द्रोण्यः, द्रोणी, द्रोण्यः स्त्रीलिङ्गे, पञ्च द्रोण्यः. पञ्च कङ्कणानि,
कङ्कतानि, कङ्कतानि,
कङ्कतानि बहुवचने अस्ति, परन्तु भेदः नास्ति. पञ्च, पञ्च, पञ्च एव पुंलिङ्गे, स्त्रीलिङ्गे, अपि च नपुंसकलिङ्गे पञ्च एव भवति.
हा इति समीचीनम्. अस्तु, इदानीं तत्र एकं, द्वे, त्रीणि, चत्वारि, तदेव तत्र इदानीम् अभ्यासं कुर्मः, तत्रापि लाभः अस्ति. अस्तु, तर्हि तत्र अस्तु, वंशीसुधा भगिनी, तत्र पत्रकारः इति, तत्र एकः अस्ति चेत् द्वौ यत्र इति, तत्र वदतु भगिनि, एक एकार एकतः पञ्चपर्यन्तं पत्रकारः.
एकः पत्रकारः, द्वौ पत्रकारौ, त्रयः पत्रकाराः, चत्वारः पत्रकाराः, पञ्च पत्रकाराः.
समीचीनं भगिनि. अस्तु, हा, श्रीप्रिया भगिनी, इदानीं तत्र नर्तक्यः इति स्त्रीलिङ्गे एकातः पञ्चपर्यन्तं.
एका नर्तकी, द्वे नर्तक्यौ, तादृशमेव खलु?
सत्यं, सत्यं भगिनि. हा,
एका नर्तकी, द्वे नर्तक्यौ, तिस्रः नर्तक्यः, चतस्रः नर्तक्यः, पञ्चनर्तक्यः,
पञ्चनर्तक्यः. समीचीनं. हा, अस्तु, अग्रे नरेश महोदय, इदानीं तत्र
द्वे नर्तकेन,
न न, नर्तकी खलु, नर्तकी खलु,
नर्तकी, नदी,
नदी, नद्यौ खलु. नरेश महोदय, इदानीं तत्र फलम् इति एकं आरभ्य पञ्चपर्यन्तम्.
एकं फलं, द्वे फले, त्रीणि फलानि, चत्वारि फलानि, पञ्च फलानि.
हा, समीचीनम्. अस्तु, ललिता भगिनी, इदानीं तत्र महिले महिला इति एका आरभ्य पञ्चपर्यन्तम्
एका महिला द्वे महिले तिस्रः महिलाः चतस्रः महिलाः पञ्च महिलाः
हा समीचीनम् अस्तु शोभा भगिनी इदानीं तत्र छात्रः इति
एकः छात्रः द्वौ छात्रौ त्रयः छात्राः चत्वारः छात्राः पञ्च छात्राः
हा समीचीनम् अस्तु गीताञ्जलि भगिनी इदानीं तत्र एकः कविः इति
एकः कविः द्वौ कवी त्रयः कवयः चत्वारः कवयः पञ्च कवयः
हा समीचीनम् अस्तु अस्तु तर्हि हा अस्तु इदानीं तत्र सर्वे इदानीं तत्र उक्तवन्तः इति मन्ये अस्तु इदानीं तत्र सङ्ख्यासु लिङ्गभेदः कुत्र वर्तते इत्युक्ते तत्र एकतः तत्र चत्वारः तावत्पर्यन्तं तत्र लिङ्गभेदः अस्ति अग्रिमे पुटे तत्र दत्तमस्ति तत्र रूपाणि दत्तानि सन्ति किन्तु पञ्च आरभ्य लिङ्गभेदः नास्ति इति अतः लिङ्गभेदः नाम रूपभेदः नास्ति तत्र पञ्च पञ्च षट् षट् सप्त सप्त इति एव अस्ति किन्तु तत्र प्रश्नः उदेति नाम तत्र विशेषणं नास्ति चेत् तत्र रूपं कथं भवति इति तत्र अतः तत्र अग्रे तत्र अवधेयम् इति अस्ति तत् अग्रिमवर्गे पठामः किन्तु इदानीं तत्र एकं द्वे त्रीणि एव तत्र यथा वेदा भगिनी उक्तवती तत्र एकः एका एकं किमर्थम् अस्ति इति सा उक्तवती नाम विशेषणम् अस्ति अतः तत्र एकः विशेषणमस्ति बालकः अतः तत्र बालकम् अस्ति चेत् तत्र एकम् एकः बालकः अस्ति एकं बालकम् इति भवति अतः अग्रिमे पुटे तत्र 62 पेज् मध्ये तत्र एकं तत्र विभक्तिरूपाणि दत्तानि सन्ति तमपि तत्र तस्यापि अभ्यासं कुर्मः अतः तत्र अभ्यासः कः भवति नाम तत्र अस्तु तत्र आरम्भे तत्र कोऽपि तत्र उषा भगिनी एकं वाक्यं वदतु एकः उपयुज्य एकः तत्र पुल्लिङ्गे हा किमपि वाक्यं वदतु सरलवाक्यं हा एकः किमपि
एकः रामः नगरे वसति
एकः रामः रामः विहाय अन्यत् किमपि तत्र
एकः बालकः
बालकः एकः बालकः
नगरे वसति
वसति एकः बालकः वसति अस्तु इदानीं तत्र वंशीसुता भगिनी इदानीं तत्र एकः बालकः इति द्वितीयविभक्तौ वाक्यं वदतु भगिनि
एकौ बालक
न न द्वितीयविभक्तौ इदानीं
द्वितीय
एकौ इति न भवति खलु एकः एव बालकः इदानीं द्वितीयविभक्तौ इदानीं द्वितीयविभक्तौ
एकं एकं बालकं आम्रं खादति
न न न एकं बालकम् आम्रं खादति न भवति खलु तत्र द्वितीयविभक्तौ तु कर्मपदम् अस्ति
आम्रं खादति
कः खादति
एकः बालकः आम्रं खादति तदेव भवति
किन्तु इदानीं द्वितीयविभक्तिरूपम् अपेक्षितम् अस्ति
ओ अस्तु अस्तु अवगच्छामि अस्तु अहम् एकं बालकं पश्यामि
हा तावदेव समीचीनम् अस्तु उत्तमम् अस्तु श्रीप्रिया भगिनी इदानीं तृतीयविभक्ति
एकेन बालकेन चित्रं दृष्टम्
हा चित्रं दृष्टं समीचीनम् अस्तु नरेश महोदय चतुर्थी
अहम् एकस्मै बालकै
बालकाय बालकाय
पुस्तकं ददामि
पुस्तकं ददामि समीचीनम् अस्तु ललिता भगिनी इदानीं पञ्चमी
अहम् एकस्मात् बालकात् पुस्तकं नयति
स्वीकरोमि स्वीकरोमि
नयामि स्वीकरोमि
स्वीकरोमि हा स्वीकरोमि सुलभमस्ति समीचीनम् अस्तु शोभा भगिनी इदानीं षष्टि
एतस्य बालकस्य पुस्तकं पश्यतु
हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी इदानीं सप्तमी
एकस्मिन् बालके सन्तोषः भवति
हा एकस्मिन् बालके सन्तोषः भवति समीचीनम् अस्तु अग्रे वेदा भगिनी इदानीं तत्र एका इति सरलवाक्यं वदतु एका उपयुज्य
एका एका महिला अस्ति
एका महिला अस्ति अस्तु इदानीम् उषा भगिनी द्वितीयविभक्ति
अहम् एकां महिलां पश्यामि
अस्तु अहम् एकां महिलां पश्यामि अथवा अहम् एकां महिलाम् आह्वयामि गृहम् आह्वयामि अस्तु हा अस्तु आह्वयामि अस्तु इदानीं गीताञ्जलि भगिनी तृतीयविभक्ति
एकया महिलया एकया महिलया सह आपणं गच्छामि
अस्तु शुभ समीचीनं शुभभगिनी चतुर्थी इदानीं
एकस्यै महिलायै अहं किं सन्देशं प्रेषयामि
हा समीचीनम् अस्तु ललिता भगिनी इदानीं पञ्चमी ओ पुनः भवती पञ्चमी एव इति अस्तु अस्तु भवती षष्टि करोतु भगिनि अन्यत् कोऽपि अन्य कोऽपि पञ्चमी करोति हा
अहम् एकस्याः महिलया
महिलायाः
महिलायाः महिलायाः पुस्तकं स्वीकरोमि
स्वीकरोमि अस्तु समीचीनम् अस्तु नरेश महोदय इदानीं पञ्चमी
पञ्चमी एकस्याः एकस्याः महिलायाः
महिलायाः महिलायाः
किं भोजनं स्वीकरोमि
उत्तमम् अस्तु इदानीं तत्र श्रीप्रिया भगिनी इदानीं सप्तमी
एकस्यां महिलायां पाके पचने नैपुण्यम् अस्ति
एकस्यां
महिलायां
हा महिलायां हा
नैपुण्यं पचने सम्यक्
नास्ति हा तत्र हा
मम विश्वासः अस्ति
हा मम विश्वासः तत्र समीचीनमस्ति भगिनि अस्तु हा अस्तु समीचीनम् अस्तु इदानीं वंशीसुधा भगिनी इदानीं तत्र द्विशब्दस्य इदानीं पुल्लिङ्गरूपं तत्र द्वौ उपयुज्य सरलवाक्यं प्रथमाविभक्ति हा
अस्तु महोदय द्वौ बालकौ गच्छतः
द्वौ बालकौ गच्छतः अस्तु इदानीं उषा भगिनी द्वितीयविभक्तिरूपं
द्वौ पुत्रौ स्तः
न द्वौ वंशीसुधा भगिनी किम् उक्तवती द्वौ बालकौ स्तः अतः द्वौ बालकौ स्तः इदानीं द्वौ कर्मपदं हा बालकौ अपि कर्मपदम् इदानीं बालकौ द्वौ बालकौ इति प्रथमविभक्तिरूपं द्वितीयविभक्तिरूपम् उपयुज्य वाक्यं वक्तव्यम्
अहं द्वौ बालकौ
विना विद्यालयं न गच्छामि अस्तु हा द्वितीया विभक्ति अपि तत्र भवति अस्तु वेदा भगिनी तृतीया विभक्ति इदानीं
द्वाभ्यां
छात्रः न बालकः इति दत्तं पदं दत्तं द्वौ बालकौ
बालकेन द्वाभ्यां बालकेन
न द्वाभ्याम् इति द्विवचने खलु
ओ हो करेक्ट् द्वाभ्यां द्विवचने तृतीया विभक्ति ओके तृतीया विभक्ति तो रामाभ्यां द्वाभ्यां बालकाभ्यां द्वाभ्यां बालकाभ्यां सः अहं गच्छामि
समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी इदानीं चतुर्थी
द्वाभ्यां बालकाभ्यां एकं पुस्तकं ददामि.
अस्तु अस्तु हा अस्तु शोभा भगिनी, इदानीं पञ्चमी.
आं महोदय, पञ्चमी द्वौ बालकौ इत्यस्य पञ्चमी अस्तु. तत्र किम् अस्ति तत्र महोदय द्वौ इत्यस्य
द्वाभ्याम् इति श्रुतवती खलु भगिनी, द्वाभ्यां बालकाभ्यां, द्वाभ्यां बालकाभ्याम् इति पञ्चमीपि
द्वाभ्यां.
तत्र राम तत्र देवाभ्यां 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 त्रिवारम् आगच्छति खलु भगिनि, तदनन्तरं देवयोः देवयोः इति तादृशं तत्र द्वाभ्यां 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 द्वयोः द्वयोः इति
द्वाभ्यां बालकाभ्यां फलं स्वीकरोमि.
हा फलं स्वीकरोमि, समीचीनं भगिनि. इदानीं तत्र नरेश महोदय तत्र षष्टि वदतु द्वयोः इति.
द्वयोः बालकयोः माता अत्र अस्ति.
हा माता माता
अत्र
अत्र अस्ति. अस्तु समीचीनं. हा ललिता भगिनी इदानीं तत्र सप्तमी.
द्वाभ्यां
न द्वयोः 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 इति इदानीं
द्वयोः बालकयोः परिश्रमम् अहं परिश्रमम् अहं श्लाघितवती.
किन्तु तत्र द्वयोः इति विभक्ति का तत्र
सप्तमी विभक्ति द्विवचने अस्ति.
कथं भवती श्लाघितवती, किं श्लाघितवती?
ओ ओ
परिश्रमं श्लाघितवती. इदानीं परिश्रमम् इति अस्ति चेत् तत्र प्रश्नः कः, कस्य इति खलु. कस्य परिश्रमं भवती श्लाघितवती? बालकयोः द्वयोः द्वयोः अथवा बालकस्य अथवा द्वयोः बालकयोः, किन्तु सप्तमी इति इदानीं
न जानामि.
अस्तु चिन्ता मास्तु भगिनि, अस्तु अन्य कोऽपि करोति. अस्तु तत्र अस्तु वंशीश्वर भगिनी भवती एव वदति वा तत्र सप्तमी रूपं.
क्षम्यतां,
द्वयोः यत् भवती उक्तवती द्वौ बालकौ इति तत्र द्वयोः बालकयोः
द्वयोः बालकयोः अहं विश्वसमि विश्वसमि.
आम् तत्र बालकयोः मम विश्वासः अस्ति, मम विश्वासः
द्वयोः बालकयोः अस्ति
अस्ति इति समीचीनं तावदेव. अस्तु
अत्र नैपुण्यम् इति
नैपुण्यं कौशल्यं सत्यं भगिनि, हा निपुणता निपुणता
नैपुण्यम् अस्ति भवति किल, भवती उक्तवती तादृशं नैपुण्यम् इति उक्तवती वा
द्वयोः
तत्र
पठनस्य नैपुण्यम् अस्ति इति अपि वक्तुं शक्यते.
न न न तत्र तु षष्ठी भवति, तत्र नैपुण्यं नाम विषये इति सप्तमी भवति, विषयसप्तमी भवति.
तर्हि वाक्यं
वाक्यं कथं भवति महोदय तत्र?
न न न तस्य निपुणता तत्र युधिष्ठिरस्य निपुणता अथवा नैपुण्यं द्यूतक्रीडे आसीत् इति अथवा तत्र राजपालने आसीत्.
तत्र पूर्वं रामे सन्तोषः अस्ति इति उक्तं किल, तत् तादृशं भवति वा रामे किमपि भावः अस्ति इति वक्तुं?
तत्र निपुण कस्मिन् विषये इति तत्र विषयसप्तमी अस्ति भगिनि, किन्तु कस्य नैपुण्यम् इति एव भवति, कस्य नैपुण्यं कस्मिन् विषये अस्ति इति इति भवति भगिनि.
अस्तु तर्हि स्टिल् तत्र सन्देहः महोदय, तर्हि रामे सन्तोषः भवति इति समीचीनं,
रामे सन्तोषः भवति, तत्र तु अधिकरणसप्तमी खलु, कुत्र सन्तोषः भवति? रामे सन्तोषः भवति.
ओ अन्यस्य सन्तोषः भवति रामे इति.
हा हा हा
अस्तु
अथवा तत्र अथवा तत्र रामस्य स्वस्य सन्तोषः अपि भवितुम् अर्हति, किन्तु तत्र निपुणता, तत्र विश्वासः कस्मिन् अस्ति, तत्र तु तत्र साक्षात् पुरुषः महिला वा तत्र तादृशम् अस्ति. निपुणता नैपुण्यं तत्र विषयः भवति, कस्मिन् विषये अथवा अपि तत्र अभिरुचिः, कस्मिन् विषये अभिरुचिः अस्ति.
अस्तु अस्तु, अवगतम्.
हा तत्र हा वेदान्ते मम अभिरुचिः अस्ति. हा वदतु भगिनि.
द्वयोः बालकयोः कार्ये अहं विश्वसिमि इति भवति वा?
न न न न
सम्यक् वा न
अहं मम विश्वासः अस्ति, मम विश्वासः अस्ति, किन्तु तत्र कार्ये इति सप्तमी अस्ति, किन्तु द्वयोः बालकयोः तत्र षष्ठी अस्ति.
द्वयोः बालकयोः रामः श्रेष्ठः.
हा तत् तद् तद् हा द्वयोः बालकयोः रामः श्रेष्ठः, तद् वक्तुं शक्नुमः तत्र, यतोहि तत्र समूहः अस्ति चेत् समूहे तत्र तेषु ये सदस्याः सन्ति तेषु कः अथवा का इति तत्र वक्तुं शक्नुमः. समीचीनं भगिनि. हा तादृशप्रयोगः भवति. हा
अन्यः प्रश्नः अस्ति, यदा वयं द्वाभ्यां बालकाभ्यां सदृश इत्यस्य योगे तृतीया इति वदामः खलु महोदय, द्वाभ्यां बालकाभ्यां सदृशः अन्यः बालकः नास्ति इति वक्तुं शक्यते वा?
सत्यम्, अन्यः बालः. हा 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 तत् भवति इति मन्ये भगिनि. हा अन्यः कोऽपि नास्ति इति सत्यं भगिनि. हा यतोहि तत्र हा
अस्य अत्र द्विवचने अस्ति अनन्तरं
तत्र दोषः नास्ति भगिनि, यतोहि तत्र हा तत्र सदृशः इति विषये तत्र बहुवचने प्रथमभागे बहुवचनं भवितुम् अर्हति, तदनन्तरम् एकः एव तत्र एकवचने भवितुम् अर्हति, तद् दृष्टवन्तः तत्र कस्मिन् पुटे इति अहं चिन्तयामि, तत्र हा 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 तत्र सत्यं भगिनि, तत्र अहं चिन्तयामि तत्र तु दोषः नास्ति इति मन्ये भगिनि. हा यद्यपि तत्र उदाहरणानि वयं न दृष्टवन्तः, किन्तु दोषः नास्ति इति मन्ये भगिनि, किन्तु पुनः एकवारं
वाक्यं किम् आसीत् महोदय, पुनः वदतु भगिनि.
पुनः वदतु भगिनि, अहं
उदाहरणं. द्वाभ्यां बालकाभ्यां सदृशः अन्यः बालकः नास्ति.
क्षमतां, विभक्ति
सदृशः सदृशः इति षष्ठी भवति न, यदि तादृश
न न तृतीया तृतीया तृतीया
न भवती किम् उक्तवती, द्वाभ्यां बालकाभ्यां सदृशः किमपि
कोऽपि नास्ति
आम् महोदय, तत्र सदृशः इति उपयोगं कुर्मः तु षष्ठी भवति न,
तादृशः भवति किल,
द्वयोः अपि
भवितुमर्हति. हा द्वयोः
तृतीया कथं मया तत्र तृतीया एव तत्र गीतसोपने अस्मिन् पुस्तके एव तत्र द्वितीये पुटे वयं दृष्टवन्तः
मया सदृशः इति वा?
हा मया सदृशः
तृतीया एव षष्ठी विभक्ति
द्वयोपि वा?
द्वयोपि.
ओ तत्र ओ अस्तु,
कुत्र अस्ति
विस्मृतं तत्र
विभक्तिसङ्ख्या द्वितीये पुटे अस्ति भगिनि, न न विभक्तिवल्लरी त्यजतु, अस्मिन्नेव अस्मिन् पुस्तके एव अस्ति.
हा एतस्मिन् पुस्तके
मया सदृशः अन्यः कः अस्ति?
सेकेण्ड् पेज्
सेकेण्ड् पेज् वा? अस्तु
मया सदृशः अन्यः कः अस्ति? द्रौपद्या सदृशी महिला विरला.
तत्र हा तत्र द्विवचने अपि वक्तुं शक्नुमः इति मन्ये भगिनि. हा द्वि अथवा अथवा द्विवचने अथवा बहुवचने अपि तत्र वक्तुं शक्नुमः इति चिन्तयामि, किन्तु पुनः एकवारं पृष्ट्वा वदामि भगिनि तत्र.
तृतीया तत्र महोदय सदृशः अपि तत्र मया इति एकवचने अस्ति, वचनमपि
न न तत्र सदृशः इति केवलं तत्र सदृशः इति तदनन्तरं तत्र पुल्लिङ्गपदं भवति इति तत्र सदृशः इति
तत्र सदृशः अन्यः कः तत्र अस्ति वा अन्वयः
हा तत्र सदृशः किमर्थम् अन्यः कः इति पुल्लिङ्गे अस्ति इति कृत्वा तत्र सदृशः हा तत्र अहं चिन्तयामि भगिनि तत्र अस्माभिः सदृशः कः अस्ति तदपि वक्तुं शक्नुमः इति मन्ये किन्तु एकवारं पृष्ट्वा वदामि भगिनि हा
सदृशौ भवति वा इति
न न सदृशौ न अथवा सदृशः अपि वक्तुं शक्नुमः वा तत्र हा भिन्नवचनेषु वक्तुं शक्नुमः इति मन्ये हा यतोहि तत्र चिन्त्यामः तत्र अनेकाः कवयः तत्र अनेके कवयः सन्ति
स्तः चेत् तौ द्वौ सदृशौ इति भवति चेत् भवति इति मन्ये महोदय
अस्तु भगिनि अत्र किञ्चित् पृष्ट्वा एव वक्तव्यमस्ति भगिनि अत्र
यथा वयं वदामः कालिदासः अपि किं
बाणभट्टः इति भर्तृहरि इति स्वीकृतं ताभ्यां सदृशः कविः अद्य न कोऽपि अस्ति इति वक्तुं शक्नुमः इति मन्ये न न केवलं सदृशः कविः ताभ्यां सदृशः कविः कोऽपि नास्ति तत्र वयं तुलनां कुर्मः तत्र कालिदासेन सदृशः अपि तत्र भर्तृहरेः सदृशः भर्तृहरिणा भर्तृहरिः खलु हरिणा हा भर्तृहरिणा सदृशः अपि नास्ति इति तत्र तद् तादृश अर्थे वाक्यं रचितुं शक्नुमः इति मन्ये भगिनि किन्तु एकवारं पृष्ट्वा वदामि अस्तु तर्हि समयः अपि जातः तत्र हा श्रीप्रिया भगिनी अन्ते तत्र शान्तिमन्त्रं वदति भगिनि
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः हरि ॐ
धन्यवादः भगिनि धन्यवादः
धन्यवादः
धन्यवादः नमस्कारः
यथा शोभा भगिनी पृष्टवती खलु सदृश